Book 2
31
31
Ở trong quán ăn 3
Restaurant mein 3
Restaurant mein 3
Tôi muốn một món khai vị.
Mujhe ek starter chahiye.
Mujhe ek starter chahiye.
Tôi muốn một đĩa rau trộn.
Mujhe ek salad chahiye.
Mujhe ek salad chahiye.
Tôi muốn một bát súp.
Mujhe ek soup chahiye.
मुझे एक सूप चाहिए।
Tôi muốn một món tráng miệng.
मुझे एक डेजर्ट चाहिए।
मुझे एक डेजर्ट चाहिए।
Tôi muốn một suất kem với kem tươi.
मुझे क्रीम के साथ एक आइसक्रीम चाहिए।
मुझे क्रीम के साथ एक आइसक्रीम चाहिए।
Tôi muốn hoa quả hoặc phó mát.
मुझे एक फल या चीज चाहिए।
मुझे एक फल या चीज चाहिए।
Chúng tôi muốn ăn bữa sáng.
हम नाश्ता करना चाहते हैं।
हम नाश्ता करना चाहते हैं।
Chúng tôi muốn ăn bữa trưa.
हम दोपहर का खाना चाहते हैं।
हम दोपहर का खाना चाहते हैं।
Chúng tôi muốn ăn bữa chiều.
हम खाना चाहते हैं।
हम खाना चाहते हैं।
Bạn muốn ăn gì vào bữa sáng?
आपको नाश्ते के लिए क्या चाहिए?
आपको नाश्ते के लिए क्या चाहिए?
Bánh mì tròn với mứt và mật ong à?
मुरब्बा और मधु के साथ बन?
मुरब्बा और मधु के साथ बन?
Bánh mì gối nướng với xúc xích và phó mát à?
Sausage और cheese के साथ toast?
Sausage और cheese के साथ toast.
Một quả trứng luộc à?
उबला हुआ अंडा?
उबाला हुआ अंडा?
Một quả trứng chiên à?
तला हुआ अंडा?
तला हुआ अंडा?
Một quả trứng tráng à?
Omelet?
Omelet?
Xin một phần sữa chua nữa ạ.
कृपया एक और दही दीजिए.
कृपया एक और दही दीजिए.
Xin muối và hạt tiêu nữa ạ.
कृपया नमक और मिर्च दीजिए.
कृपया नमक और मिर्च दीजिए.
Xin một ly nước nữa ạ.
कृपया और एक प्याला पानी दीजिए.
कृपया और एक प्याला पानी दीजिए.